एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। सूचना संचार मन्त्री डाक्टर विक्रम तिमल सिन्हा संचार क्षेत्रस्य समस्यासु आन्दोलने वा एकल विषये केन्द्रितस्य विमर्शनस्य अपेक्षयापि समग्र रूपेण समस्यानां समाधानाय सर्वकारः प्रतिबद्धोऽस्तीति ज्ञापयन् रचनात्मक परामर्शनेन सह संवादाय आगन्तुम् नेपाल पत्रकार महासंघम् अनुरोधि। नेपाल पत्रकार महासंघेन पूर्वे द्यूह ललितपुरे आयोजिते राष्ट्रिय सम्मेलने संचार मन्त्री डाक्टर तिमल सिन्हा संविधानेन सुनिश्चितानाम् अधिकाराणाम् क्रियान्वयने कथम् विदोऽपि अवरोधो न भवतीति समस्पष्टयत्। तदवसरे मन्त्री डाक्टर तिमल सिन्हा अवोचत् संचार माध्यमैः तथ्य प्रमाणानि आधृत्य नैतिकाधारेण प्रश्नाः प्रष्टव्याः। सर्वकारीय विज्ञापनानाम् दुरूपयोगस्य सूचनायाः प्राप्तेः पश्चात् सर्वकारेण आवश्यक प्रयासः चालितोऽस्तीति चर्चयन् मन्त्री डाक्टर तिमल सिन्हा संचार क्षेत्रस्य समस्याभिः कस्मिंश्चित् एकस्मिन् विषये सीमिताभिर्न भाव्यमिति उदैरयत्। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री खड्गराज पौडेलः कथयति नेपाले धार्मिक पर्यटनस्य विकासाय देवभूमि सर्किट नाम देवभूमि परिपथा योजना सञ्चाल्यमाना वर्तते। म्याग्दी जनपदस्य बेनी नगरपालिकायाः नवमवडा क्षेत्रस्य धार्मिक स्थलस्य गलेश्वर शिवालय क्षेत्रस्य यो निरीक्षणस्य पश्चात् मन्त्री पौडेलः देवभूमि परिपथस्य निर्माणाय पौराणिक तथ्यानाम् अन्वेषणाय मन्त्रालयेन अध्ययनम् प्रारब्धमस्तीति असूचयत्। तदवसरे मन्त्री पौडेलः दामोदर कुण्ड मुक्तिनाथ कागबेनी गलेश्वर पुलाश्रम बागलुङ कालिका कालन्जर पर्वत देवघाट प्रवृत्तिनाम् कृष्णा गण्डकी तटीय क्षेत्राणाम् देवभूमि परिपथेन सह योजनम् कृत्वा विकासस्य योजना स्थिति असूचयत्। आगामिनः आर्थिक वर्षस्य मौद्रिक नीतेः समयानुकूल सम्पादनाय आयव्ययके असमाविष्टानाम् विषयाणाम् समावेशनाय च सम्बद्ध पक्षैः सर्वकाराय परामर्शनम् प्रदत्तम् वर्तते। प्रतिनिधिसभायाः अन्तर्गतायाः अर्थसमितेः ह्यस्तनोपवेशे पूर्व गवर्नर पदीयैः कोषागार वित्तीय संस्थानाम् प्रतिनिधिभिः उद्योग व्यवसायिनाम् छात्र संघटनस्य प्रमुखैः प्रतिनिधिभिश्च अर्थतन्त्रस्य सुधाराय नीत्या सर्वेषाम् विषयाणाम् सम्बोधनस्य आवश्यकतास्तीति परामृष्टम् आसीत्। उपवेशे पूर्व गवर्नर पदीया दीपेन्द्र बहादुर क्षेत्री महाप्रसाद अधिकारी डाक्टर चिरञ्जीवी नेपालश्च नेपालोद्योग वाणिज्य महासंघस्य अध्यक्ष अञ्जन श्रेष्ठश्चेत्यादय विशिष्टजना स्वधारणाम् व्यक्तवन्तः। नेपाली कांग्रेस दलस्य सभापति गगन कुमार थापा आर्थिकापराधे संलग्नेषु जनेषु दण्डितेषु सत्सु स्वस्य दलम् व्यक्तिनाम् नेतृणाम् परिवारजनानाम् च दर्शनेन विनैव सर्वकारस्य समर्थनम् करिष्यतीति समस्पष्टयति। सा नेपावर्तिनी दल केन्द्रीय कार्यालये पूर्वे द्यूह आयोजिते कार्यक्रमे सभापतिः थापा आर्थिकापराधस्य विरूद्धे सर्वकारेण वैधानिक रूपेण अग्रे वर्धितायाम् दण्डन प्रक्रियायाम् दलस्य पूर्ण समर्थनम् सदपि नैज क्षेत्रस्य प्रतिनिधिन् प्रति वञ्चका इव विहिते व्यवहारे आपत्तिः अस्तीति अगदत्। प्रतिनिधिसभाया सभामुख डोलप्रसाद अरियाल निगदति देशस्य आवश्यकताम् विचार्य संसदि विधीनाम् निर्माणम् करणीयम्। काष्ठमण्डपस्य चन्द्रागिरी नगरपालिकाया त्रयोदशवडा क्षेत्रस्य कंकाली माध्यमिक विद्यालयस्य त्रिचत्वारिशत्तमस्य वार्षिकोत्सवस्य अवसरे ह्यायोजिते कार्यक्रमे सभामुख अरियाल देशस्य जनतायाश्च आवश्यकताम् सम्बोधयितुम् विधीनाम् निर्माणम् भवतीति प्रत्यपादयत्। डोल्पा जनपदस्य जगदुल्ला ग्रामपालिकातः जुम्ला जनपदम् प्रति प्रस्थीयमानम् जीपयानम् ह्यः दिवा दुर्घटितम् सदैको जनः मृतोऽस्ति। जगदुल्ला ग्रामपालिकायाः चतुर्थ वडा क्षेत्रस्य मौर्यलेख स्थाने दुरापन्नायां जीपयानस्य दुर्घटनायां त्रिपुरा सुन्दरी नगरपालिकायाः अष्टम वडा क्षेत्रस्य अष्टात्रिंशद वर्षीयो विष्णुबुडा घटनास्थले एव मृतः इति सुर्खेतवर्तिना कर्णाली प्रदेश प्रहरी कार्यालयेन ज्ञापितं वर्तते। दुर्घटनायां त्रयोदश जना आहताः वर्तन्ते। आहतेषु चत्वारो जना गभीरा सन्ति। आहतानां जनानां उपचार जुम्ला जनपदवर्तिनी कर्णाली स्वास्थ्य विज्ञान प्रतिष्ठाने जायमानोस्तीति प्रहरिणा ज्ञापितं वर्तते। जलवृष्टेः प्रारभणस्य अनन्तरं डेंगू संक्रमणस्य संकटः वर्धमानोऽस्तीत्यतः आवश्यक सावधानताम् अवलम्बितुं संक्रामक रोग नियन्त्रण महाशाखया सर्वे अनुरुद्धाः वर्तन्ते। महाशाखायाः कीटजन्य रोग शाखा प्रमुख डॉ गोकर्ण प्रसाद दाहाल प्रतिदिनं वृष्टेः वर्षणानन्तरं डेंगू रोगस्य संक्रमणमपि वर्धते इत्यतः सावधानताम् अवलम्बितुं सर्वान् अनुरुणत। आषाढमासस्य नवम दिवसात् पञ्चदशम दिवसं यावद् त्रिषष्ट्यां जनेषु डेंगू संक्रमणं पुष्टीभूतम् अस्ति इति चर्चयन् डॉ दाहाल सम्प्रति अपि प्रतिदिनं वृष्टि जायमानास्ति इत्यतः मार्गेषु गृहेषु परिसरेषु च विद्यमानेषु गर्तेषु जलसंग्रहे च विद्यमानानां मशक प्रजातीनां वृद्धेः सम्भावना अस्ति इत्यतः सावधानताम् अवलम्बितुम् अन्वरुणत्।